ॐ नमो भगवते वासुदेवाय। अथ चतुर्थोऽध्यायः। सूत उवाच। अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिमलौकिकीम् निजलोकम् परित्यज्य भगवान् भक्तवत्सलः वनमाली घनश्यामः पीतवासा मनोहरः काञ्चीकलापरुचिरो लसन्मुकुटकुण्डलः त्रिभङ्गललितश्चारु कौस्तुभेन विराजितः कोटिमन्मथलावण्यो हरिचन्दन चर्चितः परमानन्दचिन्मूर्तिर्मधुरो मुरलीधरः आविवेशस्वभक्तानां हृदयान्यमलानि च वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः तत्कथाश्रवणार्थं ते गूढरूपेण संस्थिताः। तदा जय जयारावो रथपुष्टिरलौकिकी चूर्णप्रसूनवृष्टिश्च मुहुः शङ्करवोऽप्यभूत्। तत्सभा संस्थितानां च देहगेहात्मविस्मृतिः दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवीत्। अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योऽद्य विलोकितो मया मूढाः सठाये पशुपक्षिणोऽत्र सर्वेऽपि निष्पापतमा भवन्ति। अतो नृलोके ननु नास्ति किञ्चित् चित्तस्य शोधाय कलौ पवित्रम् अघौघविध्वंसकरम् तथैव कथा समानम् भुवि नास्ति चान्यत्। के विशुध्यन्ति वदन्तु मह्यम् सप्ताहयज्ञेन कथामयेन कृपालुभिर्लोकहितम् विचार्य प्रकाशितः कोऽपि नवीनमार्गः। कुमारा ऊचुः ये मानवा पापकृतस्तु सर्वदा सदा दुराचाररता विमार्गगाः क्रोधाग्निदग्धा कुटिलाश्च कामिनः सप्ताहयज्ञेन कलौ पुनन्ति ते सत्येन हीना पितृमातृदूषकास्तृष्णाकुलाश्चाश्रमधर्मवर्जिताः ये दाम्भिका मत्सरिणोऽपि हिंसकाः सप्ताहयज्ञेन कलौ पुनन्ति ते पञ्चोग्रपापाश्छलछद्मकारिणः क्रूरा पिशाचा इव निर्दयाश्च ये ब्रह्मस्वपुष्टा व्यभिचारकारिणः सप्ताहयज्ञेन कलौ पुनन्ति ते कायेन वाचा मनसापि पातकम् नित्यम् प्रकुर्वन्ति षठाः तेन ये परस्वपुष्टा मलिना दुराशयाः सप्ताहयज्ञेन कलौ पुनन्ति ते। अत्र ते कीर्तयिष्याम इतिहासम् पुरातनम् यस्य श्रवणमात्रेण पापहानि प्रजायते। तुङ्गभद्रातटे पूर्वमभूत्पत्तनमुत्तमम् यत्र वर्णाः स्वधर्मेण सत्यसत्कर्म तत्पराः आत्मदेवः पुरे तस्मिन् सर्ववेदविशारदः श्रौतस्मार्तेषु निष्णातो द्वितीय इव भास्करः भिक्षुको वित्तमान् लोके तत्प्रिया धुन्धुली स्मृता स्ववाक्यस्थापिका नित्यम् सुन्दरी सुकुलोद्भवा लोकवार्तारता क्रूरा प्रायशो बहुजल्पिका शूरा च गृहकृत्येषु कृपणा कलहप्रिया एवम् निवसतो प्रेम्णा दम्पत्योरममाणयोः अर्थः कामास्तयोरासन्न सुखाय गृहादिकम् पश्चाद्धर्मः समारब्धास्ताभ्याम् सन्तानहेतवे गोभूहिरण्यवासांसि दिनेभ्यो यच्छतः सदा धनार्थम् धर्ममार्गेण ताभ्याम् नीतम् तथापि च न पुत्रो नापि वा पुत्री ततश्चिन्तातुरोभृशम् एकदा सद्विजो दुःखाद्गृहम् त्यक्त्वा वनम् गतः मध्याह्ने त्रिषुतो जातस्तडागम् समुपेयीवान् पीत्वा जलम् निषण्णस्तु प्रजा दुःखेन कर्षितः मुहूर्तादपि तत्रैव सन्न्यासी कश्चिदागतः दृष्ट्वा पीतजलम् तम् तु विप्रो यातस्तदन्तिकम् नत्वा च पादयोस्तस्य निःश्वसन् संस्थितः पुरः यतिरुवाच कथम् रोदिषि विप्रत्वम् काते चिन्ता बलीयसि वदत्वम् सत्वरम् मह्यम् स्वस्य दुःखस्य कारणम्। ब्राह्मण उवाच किम् ब्रवीमिरिषे दुःखम् पूर्वपापेन सञ्चितम् मदीया पूर्वजास्तोऽयम् कवोष्णमुपभुञ्जते मद्दत्तम् नैव गृह्णन्ति प्रीत्या देवा द्विजातयः प्रजा दुःखेन शून्योऽहम् प्राणान्त्यक्तुमिहागतः धिग्जीवितम् प्रजाहीनम् धिग्गृहम् च प्रजाम् विना धिग्धनम् चानपत्यस्य धिक्कुलम् सन्ततिम् विना पाल्यते या मया धेनु सावन्ध्या सर्वथा भवेत् यो मया रोपितो वृक्षः सोऽपि वन्ध्यत्वमाश्रयेत् यत्फलम् मद्गृहायातम् तच्च शीघ्रम् विनश्यति निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे इत्युक्त्वा सर्वरोदोच्चैस्तत्पार्श्वम् दुःखपीडितः तदा तस्य यतेश्चित्ते करुणाभूद्गदीयसि तद्भालाक्षरमालाम् च वाचयामास योगवान् सर्वम् ज्ञात्वा यति पश्चाद्विप्रमुचे सविस्तरम् यतिरुवाच मुञ्चाज्ञानम् प्रजारूपम् बलिष्ठा कर्मणो गतिः विवेकम् तु समासाद्य त्यज संसारवासनाम् शृणु विप्रमया तेऽद्य प्रारब्धम् तु विलोकितम् सप्तजन्मावधि तव पुत्रो नैव च नैव च सन्तते सकरो दुःखमवापाङ्ग पुरा तथा रेमुञ्चाद्य कुटुम्बासाम् सन्न्यासे सर्वथा सुखम्। ब्राह्मण उवाच विवेकेन भवेत् किम् मे पुत्रम् देहि बलादपि नो चेत् त्यजाम्यहम् प्राणान्त्यदग्रे शोकमूर्छितः पुत्रादिसुखहीनोऽयम् सन्न्यासः शुष्क एव हि गृहस्थ सरसो लोके पुत्रपौत्र समन्वितः। इति विप्राग्रहम् दृष्ट्वा प्राब्रवीत् स तपोधनः चित्रकेतुर्गतः कष्टम् विधिलेख विमार्जनात् न यास्यसि सुखम् पुत्राद्यथा दैव हतोद्यमः अतो हटेन युक्तोऽसि यर्थिनम् किम् वदाम्यहम्। तस्याग्रहम् समालोक्य फलमेकम् स दत्तवान् इदम् भक्षय पत्न्या त्वम् ततः पुत्रो भविष्यति। सत्यम् शौचम् दयादानमेकभक्तम् तु भोजनम् वर्षावधि स्त्रिया कार्यम् तेन पुत्रोऽति निर्मलः। एवमुक्त्वा ययौ योगी विप्रस्तु गृहमागतः पत्न्या पाणौ फलम् दत्त्वा स्वयम् यातस्तु कुत्रचित् तरुणीकुटिला तस्य सख्यग्रे चरुरोदः। अहो चिन्ता ममोत्पन्ना फलम् चाहम् न भक्षये फलभक्षेण गर्भस्यात् गर्भेणोदरवृद्धिता स्वल्पभक्ष्यम् ततो शक्तिर्गृहकार्यम् कथम् भवेत् दैवाद्घाटी व्रजेत् ग्रामे पलायेद् गर्भिणी कथम् सुखवन्निवसेत् गर्भस्थम् कुक्षे कथमुत्सृजेत् चिर्यक्चेदागतो गर्भस्तदा मे मरणम् भवेत् प्रसूतौ दारुणम् दुःखम् सुकुमारी कथम् सहे मन्दायाम् मयि सर्वस्वम् ननान्दासम् हरेत्तदा। सत्यशौचादि नियमो दुराराध्यः सदृश्यते लालने पालने दुःखम् प्रसूतायाश्च वर्तते वन्ध्या वा विधवा नारी सुखिनी चेति मे मतिः। एवम् कुतर्कयोगेन तत्फलम् नैव भक्षितम् पत्या पृष्टम् फलम् भुक्तम् भुक्तम् चेति तयेरितम्। एकदा भगिनी तस्यास्तद्गृहम् स्वेच्छया गता तदग्रे कथितम् सर्वम् चिन्तेयम् महती हि मे दुर्बला तेन दुःखेन यनुजे कर्वाणि किम् साब्रवीन् मम गर्भोऽस्ति तम् दास्यामि प्रसूतितः। तावत्कालम् सगर्भेव गुप्ता तिष्ठ गृहे सुखम् वित्तम् त्वम् मत्पतेर्यच्छ सते दास्यति बालकम्। षाण्मासिको मृतो बाल इति लोको वदिष्यति तम् बालम् पोषयिष्यामि नित्यमागत्य ते गृहे फलमर्पयधेन्वै त्वम् परीक्षार्थम् तु साम्प्रतम् तत्तदाचरितम् सर्वम् तथैव स्त्री स्वभावतः। अथ कालेन सा नारी प्रसूता बालकम् तदा आनीय जनको बालम् रहस्ये धुन्धुलीम् ददौ तया च कथितम् भर्त्रे प्रसूतः सुखमर्भकः लोकस्य सुखमुत्पन्नमात्मदेव प्रचोदयात्। तदौ दानम् द्विजातिभ्यो जातकर्म विधाय च गीतवादित्रघोषोऽभूत् तद्वारे मङ्गलम् बहु। भर्तुरग्रे ब्रवीत् वाक्यम् स्तन्यम् नास्ति कुचे मम अन्यस्तन्येन निर्दुग्धा कथम् पोषणामि बालकम्। मत्स्वसुश्च प्रसूताया मृतो बालस्तु वर्तते तामा कार्यगृहे रक्ष सातेर्भम् पोषयिष्यति पतिना तत्कृतम् सर्वम् पुत्ररक्षणहेतवे पुत्रस्य धुन्धुकारीति नाम मात्रा प्रतिष्ठितम्। त्रिमासे निर्गते चाथ साधेनु शुशुवेर्भकम् सर्वाङ्गसुन्दरम् दिव्यम् निर्मलम् कनकप्रभम्। दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान् स्वयमादधे मत्वाश्चर्यम् जनाः सर्वे दिदृक्षार्थम् समागताः। भाग्योदयोऽधुना जात आत्मदेवस्य पश्यत धेन्वा बालः प्रसूतस्तु देवरूपीति कौतुकम् न ज्ञातम् तद्रहस्यम् तु केनापि विधियोगतः। गोकर्णम् तम् सुतम् दृष्ट्वा गोकर्णम् नाम चाकरोत् कियत्कालेन तौ जातौ तरणौ तनयावुभौ। गोकर्णः पण्डितो ज्ञानी धुन्धुकारी महाखलः स्नानशौचक्रियाहीनो दुर्भक्षी क्रोधवर्धितः दुष्परिग्रहकर्ता च शवहस्तेन भोजनम् चौरः सर्वजनद्वेषी परवे स्म प्रदीपकः। लालनायार्भकान् धृत्वा सद्यः कूपे न्यपातयत् हिंसकः शस्त्रधारी च दीनान्धानाम् प्रपीडकः। चाण्डालाभिरतो नित्यम् पाशहस्तश्वसङ्गतः तेन वेश्या कुसङ्गेन पित्र्यम् वित्तम् तु नाशितम्। एकदा पितरौ ताड्य पात्राणि स्वयमाहरत् तत्पिता कृपणः प्रोच्चैर्धनहीनोरुरोदः वन्ध्यत्वम् तु समीचीनम् कुपुत्रो दुःखदायकः क्व तिष्ठामि क्व गच्छामि को मे दुःखम् व्यपोहयेत् प्राणांस्त्यजामि दुःखेन हा कष्टम् मम संस्थितम्। तदानीम् तु समागत्य गोकर्णो ज्ञानसंयुतः बोधयामास जनकम् वैराग्यम् परिदर्शयन् असारः खलु संसारो दुःखरूपी विमोहकः सुतः कस्य धनम् कस्य स्नेहवान् ज्वलते निशम् न चेन्द्रस्य सुखम् किञ्चिन्न सुखम् चक्रवर्तिनः सुखमस्ति विरक्तस्य मुनेरेकान्तजीविनः मुञ्चा ज्ञानम् प्रजारूपम् मोहतो नरके गतिः निपतिष्यति देहोऽयम् सर्वम् त्यक्त्वा वनम् व्रज तद्वाक्यम् तु समाकर्ण्य गन्तुकामः पिता ब्रवीत् किम् कर्तव्यम् वने तात तत्त्वम् वद सविस्तरम् अन्धकूपे स्नेहपाशे बद्धः पङ्गुरहम् शठः कर्मणापतितो नूनम् मामुद्धर दयानिधे गोकर्ण उवाच देहे स्थिमांसरुधिरेऽभिमतिम् त्यजत्वम् जायासुतादिषु सदा ममताम् विमुञ्च पश्यानिशम् जगदिदम् क्षणभङ्गनिष्ठम् वैराग्यरागरसिको भवभक्तिनिष्ठः धर्मम् भजस्व सततम् त्यज लोकधर्मान् सेवस्व साधु पुरुषान् जहि कामतृष्णाम् अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा सेवाकथारसमहो नितराम् पिबत्वम् एवम् सुतोक्तिवशतोऽपि गृहम् विहाय यातो वनम् स्थिरमतिर्गत षष्टिवर्षः युक्तो हरेरनुदिनम् परिचर्ययासौ श्रीकृष्णमापनियतम् दशमस्य पाठात् ओम् स्वस्ति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये विप्रमोक्षो नाम चतुर्थोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।